इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। आदौ मुख्याः वार्ताः। मन्त्रिमण्डलेन अष्टमस्य केन्द्रीय वेतन आयोगस्य सन्दर्भ नियमाः अनुमोदिताः। आन्ध्रप्रदेश उड़ीसा राज्ययोः मोन्था चक्रवातस्य कारणात् प्रचण्ड वृष्टिः प्रचण्ड वातश्च प्रवर्तते। मचिलीपट्टणम् कलिंगपट्टम क्षेत्रयोः मध्ये काकीनाडा क्षेत्रस्य समीपे चक्रवात प्रवेशस्य संभावना। राष्ट्रपतिः द्रौपदी मुर्मुः अन्ताराष्ट्रिय सौर संघटनस्य सभायाः अष्टमं सत्रम् उद्घाटितवती। जलवायु परिवर्तनस्य सम्भावनानां निवारणाय उपायानाम् आवश्यकतायाः उपरि बलं च प्रदत्तवती। बिहार विधानसभा निर्वाचनस्य निर्वाचन प्रचारः द्रुतगत्या प्रचलति। अपि च चतुरंग क्रीडायां भारतस्य डी गुकेशः अमेरिकीय क्रीडकौ हिकारु नाकामुरा तथा फेबियानो कारुआना इत्येतौ पराजित्य क्लच चतुरंग चैम्पियंस क्रीडायां अग्रतां प्राप्नोत्। अथ वार्ताः विस्तरेण। मन्त्रिमण्डलेन अष्टमस्य केन्द्रीय वेतन आयोगस्य सन्दर्भ नियमानाम् अनुमोदनं कृतम्। अद्य नवदिल्ल्यां मन्त्रिमण्डलसभायाः अनन्तरं सामाजिक अन्तर्जालीय माध्यमेन ज्ञापयन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् आयोगः विधानतिथितः अष्टादश मासेषु स्वस्य अनुशंसाः प्रस्तोष्यति। सः सूचितवान् यत् आयोगे एकः अध्यक्षः एकः अंशकालिकः सदस्यः एकश्च सचिवः एते सर्वेऽपि भविष्यन्ति।
एड्स पे कमीशन को आज माननीय प्रधानमंत्री जी ने अप्रूव किया और ये बहुत बड़ा महत्वपूर्ण फैसला है। अब करीब करीब सभी राज्य सरकारों ने इसमें सहयोग दिया है। 18 मंथ्स के अंदर ये रिपोर्ट आएगी इसकी। एड्स पे कमीशन जस्टिस रंजना प्रकाश देसाई को इसका चेयरपर्सन बनाया गया। आप सब पुलक घोष फ्रॉम एंड मिस्टर पंकज जैन हु इज सेक्रेटरी पेट्रोलियम एंड नेचुरल गैस दे विल बी द मेंबर्स।
रेल मंत्री अश्विनी वैष्णवः चक्रवातं निधाय समीक्षां कृतवान्। रेल विभागीय अधिकारिभ्यश्च निर्देशं दत्तवान्। मोन्था चक्रवातः 90 शतं किलोमीटर परिमितं यावत् प्रतिहोरायाः वेगेन वायुः 10-100 किलोमीटर परिमितं प्रतिहोरा यावत् तीव्रचक्रवातरूपेण परिवर्तितः। मोन्था चक्रवातः आन्ध्रप्रदेशे प्रचण्ड वृष्ट्या प्रचण्ड वातेन जलप्लावनेन च सह प्रवर्तते। उत्तर पश्चिम दिशि गम्यमानस्य चक्रवातस्य अद्य सायंकाले एव मचिलीपट्टणम् कलिंगपट्टम क्षेत्रयोः मध्ये काकीनाडा क्षेत्रस्य समीपे प्रवेशस्य सम्भावना अस्ति। काकीनाडा मचिलीपट्टणम् कृष्णा पश्चिम गोदावरी कोनासीमा बापटला प्रकाशम नेल्लोर रायलसीमा एषां केषुचित् भागेषु प्रातः कालाद् एव प्रचण्ड वृष्टिः भवति। काकीनाडा उप्पदा क्षेत्रयोः मध्ये 8 किलोमीटर परिमितं यावत् समुद्रतट मार्गः क्षतिग्रस्तः अभवत्। समुद्रस्य स्थितिः अशान्ता एव अस्ति। काकीनाडा पत्तने आपत् संकेतस्य संचेतना प्रसारिता। अन्येषाम् अपि पत्तनानां कृते न्यूना संचेतना अस्ति। उड़ीसा राज्यस्य दक्षिणतटीय मण्डलेषु अद्य प्रातः कालात् तीव्र मोन्था चक्रवातस्य प्रभावेन वृष्टिः भवति। मुख्यमंत्री मोहन चरण माझी अद्य भुवनेश्वर नगरे मोन्था इत्यस्य कृते राज्यस्य सज्जतायाः मूल्यांकनं कर्तुं उच्चस्तरीय समीक्षा सभायाः अध्यक्षतां कृतवान्। चेन्नई तिरुवल्लूर कांचीपुरम इत्येतेषु मण्डलेषु मत्स्यपालन कार्याणि पूर्णतया स्थगितानि। ऋतुविभागेन उत्तर तटीय तमिलनाडु प्रदेशे समीपस्थेषु मण्डलेषु च तीव्र वायु प्रवाहस्य संचेतना प्रसारिता। राष्ट्रपतिः द्रौपदी मुर्मुः जलवायु परिवर्तनस्य समाह्वानान् निवारणाय त्वरितस्य दृढस्य च उपायानाम् आवश्यकतायाः उपरि बलं प्रदत्तवती यस्य सम्पूर्णेऽपि विश्वे प्रभावः दृश्यते इति अवधानं प्रदत्तवती। अद्य नवदिल्ल्याम् अन्ताराष्ट्रिय सौर संघटनस्य ISA इत्यस्य सभायाः अष्टमे सत्रे मुख्याभिभाषणं कुर्वन्ती राष्ट्रपतिः अवधानं दत्तवती यत् भारतं जलवायु परिवर्तनस्य समाह्वानान् निवारणाय प्रतिबद्धम् अस्ति तथा च अस्मिन् विषये दृढ पदाक्षेपाणि स्वीकरोति। सा उल्लिखितवती यत् भारते तथा सम्पूर्णेऽपि विश्वे सभ्यताः दीर्घकालं यावत् सूर्यं जीवनस्य ऊर्जायाः च परमस्रोतरूपेण स्वीकुर्वन्ति।
The ISA represents a significant step towards addressing this global challenge by encouraging the adoption and use of solar energy. Solar energy is a rediscovery of an ancient truth, that is, sun is the most democratic source of energy, accessible to all and belonging to none. The Solar for All initiative of the Government of India is based on this concept.
वैश्विक रूपेण अन्ताराष्ट्रिय सौर संघटनस्य उल्लेखनीयां प्रगतिम् अवलम्ब्य राष्ट्रपतिः अवधानं दत्तवती यत् अग्रिमे चरणे गहन समावेशः भवेत्। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। समम् एव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। राजधान्यां दिल्ल्यां प्रदूषणं निवारयितुं कृत्रिम वृष्टिः कार्यते। पर्यावरण मंत्री मंजिंदर सिंह सिरसा उक्तवान् यत् चतुर्षु होरासु अनेकेषु क्षेत्रेषु वर्षा भवितुं शक्नोति। बिहार विधानसभा निर्वाचनस्य निर्वाचन प्रचारः द्रुतगत्या प्रचलति। अग्रिमे मासे षड्दिनांके प्रथम चरणस्य मतदानं भविष्यति। अतः एनडीए तथा महागठबंधनम् इत्येतयोः घटकदलानि मतदातॄन् आकर्षयितुं सर्वविध प्रयासरताः सन्ति। आरजेडी दलस्य नेता तेजस्वी यादवः अवदत् यत् महागठबंधनम् अद्य स्वकीयस्य समूहस्य दृष्टिं प्रकाशयन् घोषणापत्रं प्रकाशयिष्यति। सः एनडीए दलस्य दूरदृष्टेः कार्यसूच्याः मुख्यमंत्रीपदस्य प्रत्याशिनः नाम्नश्च विषये प्रश्नान् अपि उत्थापितवान्।
साफ बात, हम लोगों के तरफ से सीएम का चेहरा भी घोषित है और आज हम लोग जो है बिहार के लिए हमारी क्या योजनाएं रहेंगी अगले 5 साल के लिए, यानी जिसको आप तेजस्वी प्रण पत्र भी कह सकते हैं, घोषणा पत्र जो हम लोग आज जो है जारी करेंगे।
भाजपा दलस्य वरिष्ठः नेता तथा केन्द्रीय गृहमन्त्री श्वः दरभंगा समस्तीपुर बेगुसराय इत्येतेषु स्थानेषु बहुविधां निर्वाचनसभां सम्बोधयिष्यति। तथैव भाजपा दलस्य वरिष्ठः नेता तथा रक्षामन्त्री राजनाथसिंहः दरभंगा पटना सारण इत्येतेषु जनपदेषु जनसभां सम्बोधयिष्यति। संयुक्त राज्य अमेरिका देशे 27 दिवसानां सर्वकारीय वित्त कार्यावरोधेण विमान यात्रा निरन्तरं बाधिता अस्ति। 4,000+ अधिकानि विमानयानानि विलम्बेन प्रचलन्ति। प्रायः 18,100+ यावत् अतिरिक्तानि विमानयानानि निरस्तीकृतानि। सऊदी अरबस्य राजधान्यां रियाद नगरे भारतीय दूतावासः अद्य प्रभृति नवम्बर मासस्य तृतीय दिनांकं यावत् प्रवासी परिचयस्य तृतीय संस्करणस्य आयोजनं कुर्वन्नस्ति। अस्मिन् सांस्कृतिक महोत्सवे भारतस्य विविधाः विरासताः प्रदर्शयिष्यन्ते। चतुरंग क्रीडायां भारतस्य डी गुकेशः अमेरिकीय क्रीडकौ हिकारु नाकामुरा तथा फेबियानो कारुआना इत्येतौ पराजित्य क्लच चतुरंग चैंपियंस क्रीडायां अग्रतां प्राप्नोत्। आस्थायाः लोकप्रियः उत्सवः चतुर्दिवसीयः छठ महोत्सवः अद्य देशे सर्वत्र उदीयमानाय सूर्याय अर्घ्यस्य अर्पणेन सह सम्पन्नः। अस्मिन् अवसरे प्रधानमंत्री नरेन्द्र मोदी जनान् अभिनन्दितवान्। अन्ते पुनरेकवारं मुख्याः वार्ताः। मन्त्रिमण्डलेन 8वें केन्द्रीय वेतन आयोगस्य सन्दर्भ नियमाः अनुमोदिताः। आन्ध्रप्रदेश ओडिशा राज्ययोः मोन्था चक्रवातस्य कारणात् प्रचण्ड वृष्टिः प्रचण्ड वातश्च प्रवर्तते। मछलीपट्टणम् कलिङ्गपट्टणम् क्षेत्रयोः मध्ये काकीनाडा क्षेत्रस्य समीपे चक्रवात प्रवेशस्य सम्भावना। राष्ट्रपतिः द्रौपदी मुर्मुः अन्ताराष्ट्रिय सौर संघटनस्य सभायाः 8वें सत्रम् उद्घाटितवती। जलवायु परिवर्तनस्य समाह्वानान् निवारणाय उपायानाम् आवश्यकतायाः उपरं बलं प्रदत्तवती। बिहार विधानसभा निर्वाचनस्य निर्वाचन प्रचारः द्रुतगत्या प्रचलति इति वार्ताः।